ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। श्रीशुक उवाच, कालस्ते परमाणवादिर्द्विपरार्धावधिर्नृप, कथितो युगमानं च शृणु कल्पलयावपि, चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते, सकल्पो यत्र मनवश्चतुर्दश विशाम्पते, तदन्ते प्रलयस्तावान् ब्रह्मी रात्रिरुदारिता, त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि, एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक्, श्वेतेनन्तासनो विश्वमात्मसात्कृत्य चात्मभूः। द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः, तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै, एष प्राकृतिको राजन् प्रलयो यत्र लीयते, आण्डकोशस्तु सङ्घातो विघात उपसादिते। पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति, तदा निरन्ययन्योन्यम् भक्षमाणाः क्षुधार्जिताः, क्षयम् याच्यन्ति शनकैः कालेनोपद्रुताः प्रजाः, सामुद्रम् दैहिकम् भौमम् रसम् सांवर्तको रविः, रश्मिभिः पिबते घौरैः सर्वम् नैव विमुञ्चति, ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः, दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ, उपर्यतः समन्ताच्च शिखाभिर्वह्निसूर्ययोः, दह्यमानम् विभात्यण्डम् दग्धगोमयपिण्डवत्। ततः प्रचण्डपवनो वर्षाणामधिकम् शतम्, परः सांवर्तको वाति धूम्रम् खम् रजसावृतम्, ततो मेघकुलान्यङ्गचित्रवर्णान्यनेकशः, शतम् वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः। तत एकोदकम् विश्वम् ब्रह्माण्डविवरान्तरम्, तदा भूमेर्गन्धगुणम् ग्रसन्त्याप उदप्लवे, ग्रस्तगन्धात्तु पृथिवी प्रलयत्वाय कल्पते, अपाम् रसमथो तेजस्तालीयन्ते सनीरसाः, ग्रसते तेजसो रूपम् वायुस्तद्रहितम् तदा, लीयते चानिले तेजो वायो खम् ग्रसते गुणम्, स वै विशति खम् राजन् ततश्च नभसो गुणम्, शब्दम् ग्रसति भूतादिर्नभस्तमनुलीयते, तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणैः, महान् ग्रसत्यहङ्कारम् गुणासत्त्वादयश्च तम्, ग्रसते व्याकृतम् राजन् गुणान् कालेन चोदितम्, न तस्य कालावयवैः परिणामादयो गुणाः, अनाद्यनन्तमव्यक्तम् नित्यम् कारणमव्ययम्, न यत्र वाचो न मनो न सत्त्वम् तमो रजो वा महदादयोमि, न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः, न स्वप्नजाग्रन्न च तत् सुषुप्तम्, न खम् जलम् भूरनिलोऽग्निरर्कः, संसुप्तवच्छून्यवदप्रतर्क्यम् तन्मूलभूतम् पदमामनन्ति। लया प्राकृतिको येष पुरुषाव्यक्तयोर्यदा, शक्तयः सम्प्रलीयन्ते विवसाः कालविद्रुताः, बुद्धीन्द्रियार्थरूपेण ज्ञानम् भाति तदाश्रयम्, दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत्, दीपश्चक्षुश्च रूपम् च ज्योतिषो न पृथग् भवेत्, एवम् धीः खानि मात्राश्च न स्युरन्यतमादृतात्, बुद्धेर्जागरणम् स्वप्नः सुसुप्तिरिति चोच्यते, मायामात्रमिदम् राजन्नानात्वम् प्रत्यगात्मनि, यथा जलधरा व्योम्नि भवन्ति न भवन्ति च, ब्रह्मणीदम् तथा विश्वमवयव्युदयाप्ययात्। सत्यम् यवयवः प्रोक्तः सर्वावयविनामिह, विनार्थेन प्रतीयेरन् परस्येवाङ्गतन्तवः, यत्सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः, अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत्, विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा, न निरूप्योऽस्त्यणुरपि स्याच्चेत्चित् सम आत्मवत्, नहि सत्यस्य नानात्वमविद्वान् यदि मन्यते, नानात्वम् छिद्रयोर्यद्वज्योतिषोर्वातयोरिव, यथा हिरण्यम् बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु, एवम् वचोभिर्भगवान् धोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः, यथा घनोऽर्कप्रभवोऽर्कदर्शितो यर्कांशभूतस्य च चक्षुषस्तमः, एवम् त्वहम् ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः, घनो यदार्क प्रभवो विदीर्यते चक्षुः स्वरूपं प्रविमीक्षते तदा यदा यहंकार उपाधिरात्मनो जिज्ञासया नश्यति तर्यनुस्मरेत् यदैव मेतेन विवेक हेतिना मायामयाहंकरणात्म बंधनम् छित्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमंग संप्लवम् नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप उत्पत्ति प्रलयावेके सूक्ष्मज्ञासं प्रचक्षते कालस्रोतोजवेन सूर्यमाणस्य नित्यदा परिणामिनामवस्थास्ता जन्मप्रलय हेतवः अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना अवस्थानैव दृश्यन्ते वियतिज्योतिषामिव नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः आत्यन्तिकस्य कथितः कालस्य गतिरीदृशी एताः कुरुश्रेष्ठजगद्विधातुर्नारायणस्याखिलसत्त्वधाम्नः लीलाकथास्ते कथिता समासतः काट्स्न्येन नाजोऽप्यभिधातुमीशः संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद् विविधदुःखदवार्दितस्य पुराणसंहितामेतामृषिर्नारायणो व्ययः नारदाय पुरा प्राह कृष्णद्वैपायनाय सः स वै मह्यं महाराज भगवान् बादरायणः इमां भागवतीं प्रीतः संहितां वेदसंहिताम् एतां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।